इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। चतुर्विंशत्यधिकद्विसहस्रतमम् वक्फ संशोधन विधेयकम् अद्य लोकसभायाम् विचारार्थम् अनुमोदनार्थञ्च समायास्यति। संसदीय कार्य मन्त्री किरेन रिजिजू इत्येषः संसद्भवने वार्ताहरैः सह संवादक्रमे प्रोक्तवान् यत् सदने विधेयकोपरि अष्टहोरां यावत् चर्चा भविष्यतीति निर्णयः सञ्जातः। तेनोदीरितं यत् कार्यमन्त्रणा समित्युपवेशने अयं निर्णयो जातः यत् सदनस्य भावनामवलोक्य चर्चायाः समयः संवर्धेत। भाजपेति दलेन अद्य लोकसभायां स्वसांसदानाम् उपस्थितये व्हीप इति निर्देशः प्रख्यापितः। अत्रावधौ कांग्रेस दलेनापि सर्वे निजसांसदाः आगामिषु त्रिषु दिवसेषु सदने उपस्थितेः कृते व्हीप इति आदिष्टाः। जयन्त जय भट्टाचार्यः संयुक्त राष्ट्रस्य प्रमुखस्य चिकित्सा शोधाभिकरणस्य यूएस नेशनल इंस्टीट्यूट ऑफ हेल्थ इत्येतस्य अष्टादशतम निर्देशकरूपेण कार्यभारं स्वीकृतवान्। डॉ भट्टाचार्यः डोनाल्ड ट्रम्प इत्येतस्य प्रशासने वरिष्ठतमेषु भारतामेरिकीय जनेषु अन्यतमो वर्तते। असौ नवम्बर मासे अस्मै पदाय नामांकितो जातः। मार्च मासे पञ्चविंशति दिनांके अमेरिकीय सीनेट इत्यनेन च दृढीकृतः। रक्षा निर्यातः चतुर्विंशत्यधिक पञ्चविंशत्यधिक द्विसहस्रतम वित्तीय वर्षयोः द्वादश प्रतिशताधिकं वृद्धिना सह षट्शताधिक त्रयोविंशति सहस्रकोटि रूप्यकाणां कीर्तिमानस्तरं सम्प्राप्तवान्। मन्त्रालयेन निगदितं यत् रक्षा सार्वजनिक क्षेत्रोपक्रमैः नवाशीत्यधिक त्रिशतोत्तर अष्टसहस्र कोटि रूप्यकाणां निर्यातेन सह द्विचत्वारिंशत् दशमलव अष्टपञ्च प्रतिशतं यावत् मूल्यस्य उल्लेखनीया वृद्धिः समधिगता। रक्षामन्त्री राजनाथसिंहः अत्रावधौ सूचितवान् यत् देशः नवविंशत्यधिक द्विसहस्रतम वर्षपर्यन्तं पञ्चाशत् सहस्र कोटि रूप्यकाणां रक्षा निर्यातस्य लक्ष्यप्राप्तये अग्रे गच्छन्नस्ति। विदेश मन्त्रालयेन विज्ञापितं यत् भूकम्प प्रभाविते म्यांमारदेशे ब्रह्माभियानान्तर्गतं भारतीय चिकित्सादलद्वारा स्थापितेन क्षेत्रीय चिकित्सालयेन भूयोऽपि चतुरधिकैकशत संख्यकानां रोगिणाम् उपचारः कृतः। द्वे शल्यचिकित्से अपि सम्पादिते। मन्त्रालयेन इदमपि कथितं यत् षोडश टनपरिमितां मानवीय सहाय्य सामग्रीं नीत्वा भारतीय वायुसेनायाः एकं विमानं म्यांमारदेशस्य माण्डले क्षेत्रं सम्प्राप्तवत्। भारतीय रिजर्व बैंकेन अधिसूचितं यत् द्विसहस्र कोटि रूप्यकाणां कर्गद मुद्रास् अष्टनवति दशमलव द्विएकं प्रतिशतं यावत् मुद्रा बैंकिंग प्रणाल्यां प्रत्यावर्तिता। केवलञ्च षट्षष्ट्यधिक त्रिशतोत्तर षट्सहस्र कोटि रूप्यकाणि जनानां पार्श्वे सन्तीति। अवधेयं वर्तते यत् त्रयोविंशत्यधिक द्विसहस्रतमे वर्षे मई मासे नवदश दिनांके भारतीय रिजर्व बैंकेन द्विसहस्र रूप्यकाणां कर्गद मुद्राणां प्रचलनं निरस्तीकृतमासीत्। कौशल समर्पणयोः च उल्लेखनीयरूपेण एकस्मिन् प्रदर्शने युवभारतीया अश्वारोहिणी निहारिका सिंघानिया इत्येषा बेल्जियम देशे आयोजिते प्रतिष्ठिते एल्जेहोफ सीएसआई लियर अश्वारोहण द्वन्द्वे प्रथमं स्थानं सम्प्राप्य राष्ट्राय गौरवम् आनयत्। अन्ताराष्ट्रिय प्रतिभागीनां विरुद्धं स्पर्धां कुर्वती निहारिका उद्योगपतेः रेमंड सीएमडी गौतम सिंघानिया इत्येतस्य ज्येष्ठा पुत्री स्वर्णं गृहं प्रति आनेतुम् अद्वितीयां प्रतिभां शान्तिं च प्रादर्शयत्। आईपीएल इत्येतस्यां क्रिकेट मालिकायां पंजाब किंग्स दलेन लखनऊ नगरे एकाना क्रिकेट क्रीडांगणे ह्यः रात्रौ लखनऊ सुपर जायंट्स दलं अष्टस्तोभैः पराभूतम्। अद्य बेंगलुरुनगरे रॉयल चैलेंजर्स बेंगलुरु दलस्य सामुख्यं गुजरात टाइटन्स दलेन साकं भविष्यति। इति वार्ताः।